अथैकपञ्चाशः सर्गः। तम् समीक्ष्य महासत्त्वम् सत्त्ववान् हरिसत्तमः वाक्यमर्थवदव्यग्रस्तमुवाच दशाननम्। अहम् सुग्रीवसन्देशादिह प्राप्तस्तवान्तिके राक्षसेश हरीशस्त्वाम् भ्राता कुशलमब्रवीत्। भ्रातुः शृणु समादेशम् सुग्रीवस्य महात्मनः धर्मार्थसहितम् वाक्यमिह चामुत्र च क्षमम्। राजा दशरथो नाम रथकुञ्जरवाजिमान् पितेव बन्धुर्लोकस्य सुरेश्वरसमद्युतिः ज्येष्ठस्तस्य महाबाहुः पुत्रः प्रियतरः प्रभुः। पितुर्निदेशान्निष्क्रान्तः प्रविष्टो दण्डकावनम् लक्ष्मणेन सह भ्रात्रा सीतया सह भार्यया। रामो नाम महातेजा धर्म्यम् पन्थानमाश्रितः तस्य भार्या जनस्थाने भ्रष्टा सीतेति विश्रुता। वैदेहस्य सुता राज्ञो जनकस्य महात्मनः मार्गमाणस्तु ताम् देवीम् राजपुत्रः सहानुजः। ऋष्यमोकमनुप्राप्तः सुग्रीवेण च सङ्गतः तस्य तेन प्रतिज्ञातम् सीतायाः परिमार्गणम् सुग्रीवस्यापि रामेण हरिराज्यम् निवेदितुम्। ततस्तेन मृधे हत्वा राजपुत्रेण बालिनम् सुग्रीवस्थापितो राज्ये हर्यर्क्षाणाम् गणेश्वरः। त्वया विज्ञातपूर्वश्च बाली वानरपुङ्गवः स तेन निहतः सङ्ख्ये शरेणैकेन वानरः। ससीतामार्गणे व्यग्रः सुग्रीवः सत्यसङ्गरः हरीन् सम्प्रेषयामास दिशः सर्वा हरीश्वरः। ताम् हरीणाम् सहस्राणि शतानि नियुतानि च दिक्षु सर्वासु मार्गम् ते ह्यधश्चोपरि चाम्बरे। वैनतेयसमाः केचित् केचित् तत्राणि लोपमाः असङ्गगतयः शीघ्रा हरिवीरा महाबलाः। अहम् तु हनुमान्नाम मारुतस्यौरसस्सुतः सीतायास्तु कृते तूर्णम् शतयोजनमायतम् समुद्रम् लङ्घयित्वैव त्वाम् दिदृक्षुरिहागतः। भ्रमता च मया दृष्टा गृहे ते जनकात्मजा तद्भवान् दृष्टधर्मार्थस्तपः कृतपरिग्रहः। परदारान्महाप्राज्ञनोपरोद्धम् त्वमर्हसि न हि धर्मविरुद्धेषु बह्वपायेषु कर्मसु मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः। कश्च लक्ष्मणमुक्तानाम् रामकोपानुवर्तिनाम् शराणामग्रतस्थातुम् शक्तो देवासुरेष्वपि न चापि त्रिषु लोकेषु राजन् विद्येत कश्चन। राघवस्य व्यलीकम् यः कृत्वा सुखमवाप्नुयात् तत्त्रिकालहितम् वाक्यम् धर्म्यमर्थानुयायि च मन्यस्व नरदेवाय जानकी प्रतिदीयताम्। दृष्टा हीयम् मया देवी लब्धम् यदिह दुर्लभम् उत्तरम् कर्म यच्छेषम् निमित्तम् तत्र राघवः। लक्षितेयम् मया सीता तथा शोकपरायणा गृहेयाम् नाभिजानासि पञ्चास्यामिव पन्नगीम्। नेयम् जरयितुम् शक्या सासुरैरमरैरपि विषसंस्पृष्टमत्यर्थम् भुक्तमन्नमिवौजसा। तपः सन्तापलब्धस्ते सोऽयम् धर्मपरिग्रहः न स नाशयितुम् न्याय्य आत्मप्राणपरिग्रहः। अवध्यताम् तपोभिर्याम् भवान् समनुपश्यति आत्मनः सासुरैर्देवैर्हेतुस्तत्राप्ययम् महान्। सुग्रीवो न च देवोऽयम् न यक्षो न च राक्षसः मानुषो राघवो राजन् सुग्रीवश्च हरीश्वरः। तस्मात् प्राणपरित्राणम् कथम् राजन् करिष्यसि न तु धर्मोपसंहारमधर्मफलसंहितम्। तदेव फलमन्वेति धर्मश्चाधर्मनाशनः। प्राप्तम् धर्मफलम् तावद्भवता नात्र संशयः। फलमस्याप्यधर्मस्य क्षिप्रमेव प्रपत्स्यसे। जनस्थानवधम् बुद्ध्वा वालिनश्च वधम् तथा रामसुग्रीवसख्यम् च बुद्ध्यस्वहितमात्मनः। कामं खल्वहमप्येकः सवाजिरथकुञ्जरां लङ्कां नाशयितुं शक्तस्तस्यैष तु न निश्चयः रामेण हि प्रतिज्ञातं हर्यर्क्षगणसन्निधौ उत्सादनममित्राणां सीतायैस्तु प्रधर्षिता अपकुर्वन् हि रामस्य साक्षादपि पुरन्दरः न सुखं प्राप्नुयादन्यः किं पुनस्त्वद्विधो जनः यां सीतेत्यभिजानासि येयं तिष्ठति ते गृहे कालरात्रीति तां विद्धि सर्वलङ्काविनाशिनीं तदलङ्कालपाशेन सीता विग्रहरूपिणा स्वयं स्कन्धावसक्तेन क्षेममात्मनि चिन्त्यताम् सीतायास्तेजसा दग्धाम् रामकोपप्रदीपिताम् दह्यमानामिमाम् पश्य पुरीम् साट्टप्रतोलिकाम् स्वानि मित्राणि मन्त्रींश्च ज्ञातीन् भ्रातॄन् सुतान् हितान् भोगान् दारांश्च लङ्काञ्च मा विनाशमुपानय सत्यम् राक्षसराजेन्द्र शृणुष्व वचनम् मम रामदासस्य दूतस्य वानरस्य विशेषतः सर्वान् लोकान् सुसंहृत्य सभूतान् सचराचरान् पुनरेव तथा स्रष्टुम् शक्तो रामो महायशाः देवासुरनरेन्द्रेषु यक्षरक्षोरगेषु च विद्याधरेषु नागेषु गन्धर्वेषु मृगेषु च सिद्धेषु किन्नरेन्द्रेषु पतत्रिषु च सर्वतः सर्वत्र सर्वभूतेषु सर्वकालेषु नास्ति सः यो रामम् प्रति युध्येत विष्णुतुल्यपराक्रमम् सर्वलोकेश्वरस्येह कृत्वा विप्रियमीदृशम् रामस्य राजसिंहस्य दुर्लभम् तव जीवितम् देवाश्च दैत्याश्च निशाचरेन्द्रगन्धर्वविद्याधरनागयक्षाः रामस्य लोकत्रयनायकस्य स्थातुम् न शक्ताः समरेषु सर्वे ब्रह्मा स्वयम्भूश्चतुरानो वा रुद्रस्त्रिनेत्रस्त्रिपुरान्तको वा इन्द्रो महेन्द्रः सुरनायको वा स्थातुम् न शक्तायुधि राघवस्य स सौष्ठवोपेतमदीनवादिनः कपेर्निशम्य प्रतिमो प्रियम् वचः दशाननः कोपविवृत्तलोचनः समादिशत्तस्य वधम् महाकपेः इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एकपञ्चाशः सर्गः।